हृदलं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधं त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणं त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रे कोमलैशुभैः शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम् अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम् शालग्रामशिलामेकां विप्राणां जातु चार्पये सोमयज्ञमहापुण्यं ह्येकबिल्वं शिवार्पणं दन्तिकोटिसहस्राणि वाजपेये शतानि च कोटिकन्या महादानं ह्येकबिल्वं शिवार्पणं लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियं बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम् दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् अघोरपापसंहारं ह्येकबिल्वं शिवार्पणं काशीक्षेत्रनिवासं च कालभैरवदर्शनं प्रयागे माधवं दृष्ट्वा ह्येकबिल्वं शिवार्पणम् मूलतो ब्रह्मरूपाय मध्यदो विष्णुरूपिणे अग्रदशिवरूपाय ह्येकबिल्वं शिवार्पणम् बिल्वाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ शिवपापविनिर्मुक्तः शिवलोकमवाप्नुयात्।